इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्याः वार्ताः। रक्षामन्त्री राजनाथसिंहः अवदत् यत् सिन्दूराभियानावधौ ब्रह्मोस् क्षेपणास्त्रस्य प्रदर्शनं उल्लेखनीयं। प्रदर्शनानन्तरं विदेशेषु अपि ब्रह्मोस् क्षेपणास्त्रस्य आवश्यकता वर्धिता अस्ति। राष्ट्रपतिना द्रौपदी मुर्मूवर्यया प्रसिद्धः विधिवेत्ता उज्ज्वलदेवरावनिकमः, सामाजिककार्यकर्ता सी सदानन्दनमास्टरः, पूर्वविदेशसचिवः हर्षवर्धनशृङ्गला, प्रसिद्धा शिक्षाविद् डॉक्टर मीनाक्षी जैनः चेति राज्यसभायै प्रचिताः। अमेरिकायां फेडरल ब्यूरो ऑफ इन्वेस्टिगेशन इत्यनेन अन्ताराष्ट्रिय आतंकवादिनां कृते प्रमुखकार्याचरणं कुर्वता अष्टखालिस्तानी आतंकवादिनां निगडनं कृतमस्ति। भारतीय अंतरिक्षयात्री समूहस्य दलनायकः शुभांशु शुक्लः अपि च एक्सियोम 4 मिशन इत्यस्य अन्यत्रयः चालकदलस्य सदस्याः श्वः पृथिव्यां प्रत्यावर्तनस्य यात्रायाः आरम्भः करिष्यन्ति। अपि च टेस्ट क्रिकेट क्रीडायां एंडरसन तेंदुलकर ट्रॉफी इति क्रीडास्पर्धाया तृतीया टेस्ट क्रीडा भारत इंग्लैंडयोः मध्ये लंदनस्य लॉर्ड्स क्रीडांगणे प्रचलति। अथ वार्ताः विस्तरेण। रक्षामन्त्री राजनाथसिंहः अवदत् यत् सिन्दूराभियानावधौ ब्रह्मोस् क्षेपणास्त्रस्य प्रदर्शनं उल्लेखनीयम् आसीत्। सिन्दूराभियानस्य अनन्तरं विदेशेषु अपि ब्रह्मोस् क्षेपणास्त्रस्य आवश्यकता वर्धिता अस्ति। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः चन्द्रभानुगुप्तायाः स्वसंसदीयक्षेत्रस्य लखनऊनगरस्य द्विदिवसीययात्रायाः द्वितीयदिने राजकीय स्नातकोत्तरमहाविद्यालये प्रतिमायाः अनावरणं कुर्वन् रक्षामन्त्री अवदत् यत् चतुर्दशदेशैः ब्रह्मोस् क्षेपणास्त्राणि याचितानि सन्ति। तस्य निर्यातः लखनऊनगरात् अपि भविष्यति। एतेन राज्ये वृत्त्यावसाराणां संवर्धने साहाय्यं भविष्यति।
जो ऑपरेशन सिंदूर हुआ उसके बाद दुनिया के लगभग 14-15 देशों ने भारत से ब्रह्मोस मिसाइल की मांग की है। ब्रह्मोस मिसाइल अब लखनऊ से भी एक्सपोर्ट की जाएगी। यह फैसिलिटी रक्षा क्षेत्र में जो हमारी आत्मनिर्भरता है उसको मजबूती देगी और साथ ही इससे रोजगार का भी सृजन होगा। और मेरा प्रयास यही है कि यहां और इंडस्ट्रीज भी आए ताकि लखनऊ के साथ साथ प्रदेश का भी तेजी से विकास हो।
राष्ट्रपतिना द्रौपदी मुर्मूवर्यया प्रसिद्धः विधिवेत्ता उज्ज्वलदेवरावनिकमः, सामाजिककार्यकर्ता सी सदानन्दनमास्टरः, पूर्वविदेशसचिवः हर्षवर्धनशृङ्गला, प्रसिद्धा शिक्षाविद् डॉक्टर मीनाक्षी जैनः चेति राज्यसभायै प्रचिताः। गृहमन्त्रालयेन एकाम् अधिसूचनां प्रख्याप्य निर्णयोऽयं विज्ञापितः। महाराष्ट्रस्य निवासी श्रीनिकमः मुम्बई आतंकवाद्याक्रमणस्य प्रकरणानां प्रशासनिकविधिवेत्ता वर्तते। केरलस्य सी सदानन्दनमास्टरः शैक्षिकजगति दीर्घकालिक अनुभवस्य कृते विज्ञायते। श्रीशृङ्गला संयुक्तराज्य अमेरिका बांग्लादेश थाईलैंड चेत्येषु देशेषु राजदूतरूपेण कार्यरतः आसीत्। सः 23-2000 वर्षे भारतस्य G20 इत्यस्य अध्यक्षतायै मुख्यसमन्वयकः आसीत्। डॉक्टर जैनः दिल्ली विश्वविद्यालयस्य गार्गी महाविद्यालये इतिहास विषयस्य सहचार्या आसीत्। राष्ट्रपतिः कला साहित्य विज्ञान सामाजिक चेत्येषु सेवासु तेषां योगदानाय संसदि उच्चसदनाय 12 जनानां चयनं करोति। प्रधानमन्त्री नरेन्द्र मोदी सोशल मीडिया संदेश माध्यमेन संसदः उच्चसदने नामांकितानां 4 जनानां कृते शुभकामनाः प्रदत्तवान्। इतः परं घोषणायाः अनन्तरं स्वप्रतिक्रियां प्रकटीकुर्वन् विशेषः लोक अभियोजकः उज्ज्वलनिकमः वार्ताहरैः सह सम्भाषितवान् यत् एषः गर्वस्य विषयः इति।
Really, it's a pride moment for me. I never thought, I never expected that I will be taken up as a member of Rajya Sabha by the Honorable President of India. So I'm really proud of, and I must say thank you to Honorable President of India, our beloved Prime Minister, Union Home Minister.
अमेरिकायां फेडरल ब्यूरो ऑफ इन्वेस्टिगेशन इत्यनेन अन्ताराष्ट्रिय आतंकवादिनां कृते प्रमुखकार्याचरणं कुर्वता अष्टखालिस्तान आतंकवादिनां निगडनं कृतम्। एतेषु आतंकवादिषु पंजाबराज्यस्य कुख्यातः आतंकवादी पवित्र सिंह बटाला अपि सम्मिलितः वर्तते। बटाला प्रतिबंधित समूहस्य बब्बर खालसा इत्यस्य अन्ताराष्ट्रिय आतंकवादिनां गतिविधिनां कृते भारते प्रसिद्धः वर्तते। राष्ट्रीय अन्वेषण अभिकरणेन जून मासे जतिन्दर ज्योति तथा बब्बर खालसा इत्यस्य नामांकितः आतंकवादी लखवीर लांडा इत्यनेन सह बटाला इत्याख्यस्य नाम एकस्मिन् आरोपपत्रे पंजीकारितम् अस्ति। भारतीय अंतरिक्षयात्री समूहस्य दलनायका शुभांशु शुक्लः अपि च एक्सियोम फोर मिशन इत्यस्य अन्यत्रयः चालकदलस्य सदस्याः श्वः पृथिव्यां प्रत्यावर्तनस्य यात्रायाः आरम्भः करिष्यन्ति इति अपेक्षा अस्ति। केन्द्रीय विज्ञान एवं प्रौद्योगिकी मंत्री डॉक्टर जितेन्द्र सिंह सोशल मीडिया संदेशे अवदत् यत् श्वः भारतीय मानक समयानुसारं सायं सार्धचतुर्वादने अनडॉकिंग निर्धारितम् अस्ति। स अवदत् यत् चालकदलं मंगलवासरे प्रायः सायं त्रिवादने पृथिव्याम् आगमिष्यति। दलनायकः श्री शुक्लः अन्तर्राष्ट्रीय अन्तरिक्षस्थानकं प्रति 14-दिवसीयाभियाने आसीत्। यात्रायाः कालखण्डे दलनायकः श्री शुक्लः सप्त भारत विशिष्ट प्रयोगः अकरोत्। उत्तरप्रदेशस्य लखनऊनगरे वार्ताहरैः सह वार्तालापं कुर्वन् शुभांशुशुक्लस्य पिता शम्भुदयालः अवदत् यत् ते ईश्वरं प्रार्थयन्ति यत् सः सुरक्षितरूपेण आगच्छेत्।
जिसके लिए हम लोग गिनते दिन से इंतजार कर रहे थे, अब वो जो है वापसी हो रही है। हम लोगों को बहुत ही खुशी है और बहुत प्रसन्न है कि जल्दी से जल्दी वो वापस आ गए। ये हम ईश्वर से प्रार्थना करते हैं को सक्सल जो है पृथ्वी पर आसानी से उनका वापस हो और ये हमारे लिए बड़ी खुशी का दिन हो।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेंद्र मोदी प्रख्यातस्य अभिनेतुः निधने दुःखं प्रकटितवान्। प्रसिद्धः तेलुगु चलचित्राणाम् अभिनेता कोटा श्रीनिवास रावः अद्य हैदराबाद नगरे दिवंगतः। सः 83 वर्षीयः आसीत्। स्वसन्देशे प्रधानमंत्री प्रोक्तवान् यत् कोटा श्रीनिवास रावः स्वस्य चलचित्र प्रतिभायाः बहुमुखी प्रतिभायाः च कृते स्मर्यते। सिंगापुर गणराज्यस्य यात्रारतः विदेशमंत्री डॉ एस जयशंकरः अद्य स्वसमकक्षेण विवियन बालकृष्णेन सह अमिलत्। एकस्मिन् अन्तर्जाल सन्देशे डॉ जयशंकरः अवदत् यत् सिंगापुरं भारतस्य एक्ट ईस्ट नीतेः केन्द्रे अस्ति। विदेशमंत्री अद्य टेमास्क होल्डिंग्स इत्यस्य मनोनीताध्यक्षस्य टेओ चीहेन इत्यनेन सह अपि मेलनं कृतवान्। अस्मिन् अवसरे डॉ जयशंकरः भारतदेशे परिवर्तनस्य निवेशस्य च अवसराणां विषये चर्चां कृतवान्। एकस्मिन् अन्तर्जालीय सन्देशे विवियन बालकृष्णन् उक्तवान् यत् यथा यथा विश्वं बहुध्रुवीयं भवति तथा तथा भारतम् एतेषु प्रमुखध्रुवेषु अन्यतमरूपेण महत्वपूर्णां भूमिकां निर्वक्ष्यति। सिंगापुरस्य यात्रायाः अनन्तरं विदेशमंत्री एस जयशंकरः संघाई सर्वकार संगठनस्य विदेशमंत्रिणां परिषदि भागं गृहीतुं चीनदेशस्य तियान्जिन नगरं प्रस्थास्यति। भारतीय ऋतुविज्ञान विभागेन मध्यप्रदेशे गोवायां केरले तटीय कर्नाटके जम्मू कश्मीरे लद्दाखी च आगामिषु 3-4 दिनेषु अत्यधिकवृष्टेः पूर्वानुमानं कृतम्। आगामिषु 5 दिनेषु असम मेघालय नागालैंड मणिपुर मिजोरम त्रिपुरा अरुणाचल प्रदेशेषु अपि अत्यधिकवृष्टेः संभावना प्रकटिता। विभागेन मत्स्यजीविभ्यः परामर्शः प्रदत्तः यत् आगामी दिनत्रये केरले कर्नाटकतटे लक्षद्वीपे पश्चिम मध्य बंगखात्यां केचन भागेषु दक्षिण पश्चिम बंगालखात्यां च उद्यमं न कुर्वन्तु। अद्य राष्ट्रीय राजधानी दिल्ल्यां वृष्टिः अभवत्। वर्षायाः कारणेन तापमाने न्यूनता आगता। उत्तराखंडे गुरुवासर पर्यन्तं वर्षा भविष्यति इति विभागेन पूर्वानुमितम् अस्ति। अस्माकं संवाददात्रानुसारं पूर्वानुमानं दृष्ट्वा प्रशासनेन सतर्कतायै निर्देशः प्रदत्तः अस्ति। मध्यप्रदेशे प्रचण्डवृष्ट्या अनेकेषु मण्डलेषु जलप्रलयस्य स्थितिः प्रवृत्ता। रीवा सतना मेहार छत्रपुर मण्डलानाम् अनेकेषु ग्रामेषु जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति। टेस्ट क्रिकेट क्रीडायां एंडरसन तेंदुलकर ट्रॉफी इति क्रीडा स्पर्धाया तृतीया क्रिकेट क्रीडा भारत इंग्लैंडयो मध्ये लंदनस्य लॉर्ड्स क्रीडांगणे प्रचलति। अद्य तृतीय टेस्ट क्रीडायाः चतुर्थे दिने भोजनावकाशं यावत् इंग्लैंड दलेन चतुर्णां क्रीडकानां हानौ 98 धावनांकाः समर्जिताः इति वार्ताः।